नमस्कारः अद्य वैयाकरणभूषणसारस्य धात्वर्थप्रकरणे सप्तदशः पाठः मार्च् मासस्य चतुर्दशः दिनाङ्कः येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् श्रीलक्ष्मीरमणं नौमि गौरीरमणरूपिणं स्फोटरूपं यतः सर्वं जगदेतद्विवर्तते। धात्वर्थप्रकरणस्य अष्टमी कारिका अस्माभिः अधीयमाना अस्ति। एतावता किं किमधीतम् इति संक्षेपेण पश्यामः। प्रथमकारिकायां भट्टोजी दीक्षितैः मङ्गलाचरणपूर्वकं ग्रन्थस्य उद्देश्यं कथितम्। फणिभाषितभाष्याब्धेः शब्दकौस्तुभोद्धृतः तत्त्वनिर्णीत एव अत्र संक्षेपेणेह कथ्यते। अनेन महाभाष्ये विमृष्टाणां विचाराणां शब्दकौस्तुभे च विस्तरेण प्रतिपादितानां वैयाकरणसिद्धान्तानां संक्षेपेण कथनम् अस्य ग्रन्थस्य नाम वैयाकरणमतोन्मज्जनकारिकायाः उद्देश्यम् इति ज्ञातम्। तस्य वैयाकरणमज्जनसारस्य व्याख्यारूपः अयं ग्रन्थः वैयाकरणभूषणसारः, यत्र कारिकाणां व्याख्यानं क्रियते। फलव्यापारयोर्धातुः आश्रयेतु तिङस्मृताः, फले प्रधानं व्यापारः तिङर्थस्तु विशेषणम् इति द्वितीया कारिका। धात्वर्थप्रकरणस्य प्रमुखः सिद्धान्तः अनया कारिकया उक्तः। धातुः फलस्य व्यापारस्य च वाचकः, अर्थात् फलव्यापारौ धात्वर्थः, कर्तृकर्मणि तिङर्थः, व्यापारमुख्यविशेषकशाब्दबोधः इत्येतत्त्रयमेव धात्वर्थप्रकरणे वैयाकरणानां परमः सिद्धान्तः। अन्याः सर्वाः अपि कारिकाः प्रायेण एतेषाम् अर्थानाम् अथवा एतेषां सिद्धान्तानां पूर्वपक्षनिराकरणपूर्वकं प्रतिपादनाय एव प्रवृत्ताः। सिद्धान्तकथनं तु अनया कारिकया एव कृतम्। ततः तृतीयकारिकायां, तत्र द्वितीयकारिकायाः व्याख्याने कौण्डभट्टेन कर्तकर्मणोः तिङर्थत्वं पूर्वपक्षनिराकरणपूर्वकं साधितम्। तृतीयकारिकायां फलव्यापारयोस्तत्र फले तङ्यक्चिणादयः, व्यापारे शप्ष्णमाद्यास्तु द्योतयन्त्याश्रयान्वयम् इत्यनेन यगादयः कर्मद्योतकाः, शबादयश्च कर्तृद्योतकाः। तिङ्प्रत्ययैरेव कर्ता कर्म इति अर्थद्वयमपि बोध्यते, उच्यते। क्व कर्तुः बोधः, क्व कर्मणः बोधः इति सन्देहे यगादयः कर्मद्योतकाः, शबादयश्च कर्तृद्योतकाः इति औत्सर्गिकः नियमः तृतीयकारिकया उक्तः। तदपवादाश्च चतुर्थ्यां कथिताः। उत्सर्गोऽयं कर्मकर्तृविषयादौ विपर्ययात् तस्माद्यथोचितं ज्ञेयं द्योतकत्वं यथागमम्। अयम् औत्सर्गिकः नियमः कर्मकर्तरि बाधितः, अर्थात् कर्मकर्तृप्रयोगे पच्यते ओदनस्वयमेव इत्यादिषु कर्तृवाचके अपि लकारे यगादयः दृश्यन्ते कर्मवद्भावविधानात्। एवम् अबोधिक्रमादमुं नारद इत्यबोधिसः इत्यादिषु कर्त्रर्थे एव चिण् प्रत्ययः विधीयते। इत्थञ्च औत्सर्गिकोऽयं नियमः वस्तुतः कुत्र कर्तृबोधकत्वं कुत्र कर्मबोधकत्वम् इत्यादि यथौचित्यं यथागमं नाम यथाशास्त्रं ज्ञेयम् इति कथितम्। ततः प्रथमद्वितीयकारिकायां फलव्यापारयोः धातुः इत्यादि यः सिद्धान्तः कथितः तस्य साधनार्थं प्रवर्तन्ते भट्टोजिदीक्षिताः। तत्रादौ पञ्चमकारिकायां सर्वविधव्यापारस्य तथा फलस्य च वाच्यत्वं साधयन्ति। कस्माद्वाच्यः व्यापारः, फलं कस्माच्च वाच्यम् इति भिन्नम्। आदौ वाच्यत्वं साधितम्, अर्थः वाच्योऽपि भवति अवाच्योऽपि भवति। आल् मीनिङ्ग् नीड् नाट् बि वाच्य। सो वेन् वि आर् सेयिङ्ग् वाच्य, वि मीन् दट् विच् इस् डिरेक्ट्लि एक्स्प्रेस्ड् बै अ वर्ड्। शक्यते यथा परमलघुमञ्जोषायाम् अधीयते वाच्यवाचकभावः नाम शक्तिः शक्त्या यः अर्थः प्रतीयते स एव वाच्यार्थः सः तेषां वाच्यार्थत्वम् आदौ साधयन्ति सर्वविधोऽपि व्यापारः नाम आत्मनिष्ठः कृतिरूपः व्यापारः शरीरनिष्ठः पुत्कारादिश्च सर्वोऽपि वाच्यः फलमपि वाच्यम् व्यापारो भावना सैवोत्पादना सैव च क्रिया क्रियो अकर्मकतापत्तेर् नहि यत्नोऽर्थयिष्यते इति कथयता दीक्षितेन सर्वविधस्यापि व्यापारस्य वाच्यत्वं साधितम् तत्र मीमांसकानां मीमांसकेषु केचन लिङ् लकारे एव भावनावाच्य अन्यत्र लडादिषु भावना अवाच्य इति कथयन्ति नैयायिकाः कृतिरेव वाच्य न तु व्यापारः शरीरनिष्ठस्य व्यापारस्य वाच्यत्वं नास्ति इति कथयन्ति जानाति करोति इत्यादिषु व्यापारमात्रं वाच्यं फलस्य अवाच्यत्वम् इत्यादि अपि नैयायिकानां मतम् एतेषां सर्वेषां निराकरणपूर्वकं सर्वविधः व्यापारः फलञ्च वाच्यम् इति पञ्चमकारिकया साध्यते अत एव अर्थात् फलव्यापारयोः उभयोः वाचकत्वादेव क्रीधातोः सकर्मकत्वं कर्मकर्तरि कर्मवद्भावश्च सङ्गच्छते इति षष्ठीकारिका तत्र पञ्चमकारिकायामपि दृष्टम् यदि फलं व्यापारः इत्युभयं वाच्यं न स्यात् तर्हि सकर्मक अकर्मकविभागस्य उच्छेदापत्तिः स्वार्थफल व्यधिकरणव्यापारवाचकत्वं सकर्मकत्वम् अथवा स्वार्थव्यापारव्यधिकरणफलवाचकत्वं सकर्मकत्वम् इत्यादिरीत्या सकर्मकत्वस्य लक्षणमेव वक्तुम् अशक्यं फलव्यापारयोः उभयोः वाच्यत्वं विना यदा उभयोः वाच्यत्वम् अभ्युपगम्यते तदैव सकर्मकता सिध्यति अत एव क्रियते घटस्वयमेव इत्यादिषु क्रीधातोः कर्मकर्तरि कर्मवद्भावः अपि भवति इति प्रतिपाद्य कर्मवद्भावस्य नियमः अपि कारिकया उक्तः यद्यपि साक्षात् धात्वर्थेन सह असम्बद्धः सो दिस् कारिका इस् नाट् डिरेक्ट्ली रिलेटेड् टु धात्वर्थ प्रसङ्गवशात् कर्मवद्भावः कुत्र भवति कुत्र न भवति इति उच्यते निर्वर्त्ये च विकार्ये च कर्मवद्भाव इष्यते न तु प्राप्ते कर्मणीति सिद्धान्तोऽत्र व्यवस्थितः अनेन किं साधितं व्यापारः फलञ्च वाच्यम् कस्य वाच्यम् व्यापारः फलञ्च धातुवाच्यम् इति वैयाकरणाः किन्तु फलं धातुवाच्यं भावना अथवा व्यापारः किङ्वाच्यः आख्यातवाच्य इति मीमांसकानां मतम् तस्य खण्डनार्थं प्रवृत्ता अष्टमी कारिका तस्मात् करोतिर्धातोस्याद् व्याख्यानन्नत्वसौतिनां पक्ववान् कृतवान् पाकं किं कृतं पक्वमित्यपि इति एषा कारिका अस्माभिः अधीयमाना अस्ति तत्र मीमांसकानां मतम् आख्यातवाच्यैव भावना न तु धातुवाच्य तत्र प्रमाणत्रयम् उपस्थापयन्ति मीमांसकाः आदौ प्रत्ययार्थप्राधान्यन्यायः प्रकृतिप्रत्ययौ सहार्थं ब्रूतः तत्र प्रत्ययार्थः प्रधानम् भावप्रधानमाख्यातम् इति यास्कवचनात् तिङन्ते भावनायाः प्राधान्यं ज्ञायते अतः सा भावना प्रत्ययार्थः एव न तु धात्वर्थः तदागमन्यायः तदागमे हि यद्दृश्यते तस्य ज्ञानं यथा इतरेषाम् इति सोऽपि मीमांसकन्यायः यथा पचति इत्यत्र आख्यात नाम तिङ् प्रत्ययस्य आगमे भावनाप्राधान्यं दृश्यते पाचकः इत्यादिषु तिङ् प्रत्ययस्य अभावे भावनाप्राधान्यमपि न दृश्यते एवञ्च अन्वयव्यतिरेकाभ्यां भावना तिङर्थः अथवा आख्यातार्थः इति साधयन्ति किञ्च विवरणबलात् पचति इत्यस्य पाकं करोति इति विवरणं दीयते तत्र पाकम् इति धात्वंशं बोधयति करोतिः प्रत्ययांशं बोधयति करोतिश्च केवल यत्नार्थकः अथवा भावनार्थकः अतः करोतिना विवरणात् भावना प्रत्ययार्थः इति त्रिभिः तिसृभिः युक्तिभिः मीमांसकाः भावनायाः आख्यातवाच्यत्वं साधयन्ति तत्र प्रत्येकं निराक्रियते वैयाकरणैः फलमात्रस्य धात्वर्थत्वे यदि फलमात्रं धात्वर्थः भावना आख्यातार्थः इत्यङ्गीक्रियते तदा ग्रामो गमनवान् इति प्रयोगापत्तिः। यतोहि गमनम् इत्यत्र भावार्थे नुल् प्रत्ययः, सच प्रत्ययः भावो नाम धात्वर्थः इत्यनेन धात्वर्थमात्रं बोधयति। यदि धात्वर्थः फलं तर्हि गमनम् इत्यस्य संयोगः इत्यर्थः। संयोगस्तु ग्रामे अपि अस्ति, यथा चैत्रे तथा ग्रामे संयोगः द्विनिष्ठः, अतः ग्रामो गमनवान् इति प्रयोगापत्तिः। वस्तुतस्तु नेष्यते, यतोहि गमनम् इत्यनेन अस्मन्मते वैयाकरणमते उत्तरदेशसंयोगः तदनुकूलव्यापारः, व्यापारस्यापि धात्वर्थत्वात् भावो नाम धात्वर्थः। भावप्रत्ययान्तैः धात्वर्थः एव बुध्यते इत्यतः उत्तरदेशसंयोगानुकूलव्यापारः गमनशब्दस्य अर्थः। तथा सति व्यापारः कर्तरि एव अस्ति, अतः चैत्रः गमनवान् इत्येव प्रयोगः, ग्रामो गमनवान् इति प्रयोगः न भवति वैयाकरणमते। यदि फलमात्रं धात्वर्थः इति स्वीक्रियते तर्हि तादृशस्य प्रयोगस्य आपत्तिः। किञ्च तत्र मीमांसकैरुच्यते, अस्तु भावप्रत्ययस्य धात्वर्थत्वम् इति मास्तु, घयादेः अनुकूलव्यापारवाचकत्वम् अर्थः। धात्वर्थानुकूलव्यापारः भावप्रत्ययार्थः इति यदि वदन्ति तर्हि भावे इति विशिष्य विधानस्यैव वैयर्थ्यम्। यथा लः कर्मणि च भावे च इत्यत्र अनुवृत्तेन कर्तृपदेन धर्मपरकत्वात् कर्तृत्वं भावना इत्यर्थः मीमांसकैः स्वीक्रियते, तथैव कर्तरि कृत् इत्यत्रापि कर्तृपदेन धर्मपरकत्वे अर्थे भावना कर्तृत्वं नाम भावना व्यापारः अनुकूलव्यापारः इत्यर्थः ज्ञातुं शक्य एव। तथा सति पृथक् भावे इति विधानस्य वैयर्थ्यम्, अतः तादृशः अर्थः अपि स्वीकर्तुं न शक्यते इति तन्निराकृतम्। नव्यमीमांसकानां मते फलव्यापारौ धात्वर्थः, तद्व्यापारानुकूला कृतिरूपा भावना प्रत्ययार्थः। यथा नैयायिकाः तथा नव्यमीमांसकाः अपि फलं व्यापारं च धात्वर्थत्वेन अङ्गीकुर्वन्ति। कृतिः आत्मनिष्ठः भावना नाम कृतिः प्रत्ययार्थः इति वदन्ति, तस्याः एव प्राधान्यम् इति च। तत्तु न युज्यते, यतोहि व्यापारे धातोः शक्तिकल्पना, पुनः तिङ्प्रत्ययस्यापि कृतौ शक्तिकल्पना इत्यादि गौरवम्। तदपेक्षया सर्वविधस्यापि व्यापारस्य धातुवाच्यत्वकल्पनमेव लाघवम् इत्यतः फलव्यापारयोः धात्वर्थत्वं साधयन्ति वैयाकरणाः। किञ्च मीमांसकैः युक्तित्रयं प्रतिपादितम्, प्रत्ययार्थप्राधान्यन्यायः, तदागमन्यायः, विवरणम् इति। एतत्त्रयमपि अधुना निराक्रियते। प्रत्ययार्थप्राधान्यन्यायाङ्गीकारे किं भवति? पक्ववान् पाकं कृतवान् इति विवरणं दृश्यते। पक्ववान् इति क्तवत्वन्तशब्दः, तस्य विवरणं भवति पाकं कृतवान्। प्रकृतिप्रत्यययोः प्रत्ययार्थः एव प्रधानम् इति न्यायः यदि स्वीक्रियते तर्हि पाकम् इत्यत्र पाक इति शब्दात् पाकपदार्थः, अम् इत्यनेन कर्मत्वं कर्म बोध्यते, अतः पाकम् इत्यनेन कर्मणः प्राधान्येन बोधः। कृतवान् इत्यत्र धातुना उत्पत्तिः बोध्यते, तवतु इति प्रत्ययेन कर्ता बोध्यते, एवञ्च कृतवान् इत्यत्र कर्तुः प्राधान्यम्। पाकम् इत्यत्र कर्मणः, कृतवान् इत्यत्र कर्तुः, कर्म कर्त्रोः परस्परम् अन्वयः एव न भवति। किमर्थम्? क्रियायाम् एव कारकाणां सर्वेषामपि अन्वयः, परस्परान्वयः नास्ति। वैयाकरणा अपि वदन्ति, मीमांसकाः अपि वदन्ति, कारकाणां क्रियायामेव अन्वयः न तु परस्परम् इति। एवं सति पाकं कृतवान् इति विवरणे परस्पर अन्वयः एव न भवति। प्रकृत्यर्थस्य प्रत्ययार्थस्य च, प्रकृत्यर्थः कर्म, प्रत्ययार्थः कर्ता, प्रकृतिप्रत्ययार्थयोः परस्पर अन्वयस्यैव अभावे प्राधान्यस्य विचारः कथम् उद्भवति? प्राधान्यविचारं कर्तुमेव न शक्नुमः, अतः अयन्यायः अङ्गीकर्तुं न शक्यते। तदा मीमांसकैरुच्यते, क्रियाकारकभावेन अन्वये क्रियात्वमपेक्षितं कारकाणां सर्वेषां ಕ್ರಿಯಾಯಾಮೇವ ಅನ್ವಯಃ ಇತಿ ಸತ್ಯಂ ಕಿಂತು ಸಂಬಂಧ ಸಾಮಾನ್ಯೇನ ಪರಸ್ಪರಂ ಅನ್ವಯಂ ಕುರ್ಮಃ ನತು ಕ್ರಿಯಾಕಾರಕ ಭಾವೇನ ಇತಿ ಉಚ್ಯತೆ ಚೇತ್ ತದಪಿ ನ ಶಕ್ಯತೆ ಯೋಗ್ಯತಾ ವಿರಹಾತ್ ಯತ್ರ ಯೋಗ್ಯತಾ ತತ್ ಪ್ರಯೋಜಕ ರೂಪವತ್ವಂ ಅಸ್ತಿ ಅನ್ವಯ ಪ್ರಯೋಜಕ ರೂಪವತ್ವಂ ಸಾಯೇವ ಯೋಗ್ಯತಾ ತತ್ರೈವ ಪರಸ್ಪರ ಅನ್ವಯಃ ಶಕ್ಯತೆ ಅತ್ರ ತು ಕ್ರಿಯಾತ್ವಮೇವ ಕಾರಕಾನ್ವಯಿತಾವಚ್ಛೇದಕಂ ಯರ್ಥಾತ್ ಯತ್ರ ಕ್ರಿಯಾತ್ವಂ ತತ್ರೈವ ಕಾರಕಾಣಾಂ ಅನ್ವಯ ಸಂಭಾವನಾ ಕ್ರಿಯಾಕಾರಕ ಭಾವೇನ ವಾ ಅನ್ವಯಃ ಭವತು ಸಂಬಂಧ ಸಾಮಾನ್ಯೇನ ವಾ ಅನ್ವಯಃ ಭವತು ತತ್ರ ಅನ್ವಯೇ ಪ್ರಯೋಜಕಂ ಭವತಿ ಕ್ರಿಯಾತ್ವಂ ಕ್ರಿಯಾತ್ವಸ್ಯ ಅಭಾವೇ ಅನ್ವಯ ಏವ ನ ಭವತಿ ಅತಃ ಯದಿ ಪ್ರತ್ಯಯಾರ್ಥ ಪ್ರಾಧಾನ್ಯ ನ್ಯಾಯ ಅಂಗೀಕ್ರಿಯತೆ ತರ್ಹಿ ಪಕ್ವವಾನ್ ಇತ್ಯತ್ರ ಪ್ರಕೃತಿ ಪ್ರತ್ಯಯಾರ್ಥಯೋ ಪರಸ್ಪರ ಅನ್ವಯ ಏವ ನಾಸ್ತಿ ತಥಾ ಸತಿ ಪ್ರಾಧಾನ್ಯ ವಿಚಾರ ಕರ್ತುಂ ಅಶಕ್ಯಃ ಇತ್ಯೇತಾವತ್ ಗತವರ್ಗೇ ಅಧೀತಂ. ಎನಿ ಕ್ವೆಶ್ಚನ್? We do keep going back to the initial stuff every class. I mean, I do start every class with a recap of everything that we have done before, which is deliberate because it is a text at this advanced level. Unless we go through it again and again, it is difficult to remember or retain the, you know, flow of argument. Okay. So, punah punah shravanenava ಸಂಸ್ಕಾರಃ ಮನಸಿ ತಿಷ್ಠತು ಇತಿ ಧಿಯಾ ಪುನರಾವರ್ತನೆ ಸಮಯಯಾಪನಂ ಕ್ರಿಯತೆ. ಸೊ ಇವನ್ ದೋ ದ ನ್ಯೂ ಗ್ರೌಂಡ್ ವಿ ಕವರ್ ಈಸ್ ಪಾಸಿಬ್ಲಿ ಲೆಸ್ ಬಿಕಾಸ್ ಆಫ್ ದ ಟೈಮ್ ವಿ ಸ್ಪೆಂಡ್ ಇನ್ ಪುನರಾವರ್ತನ, ಐ ಥಿಂಕ್ ಇಟ್ ಈಸ್ ಯೂಸ್ಫುಲ್ ಬಿಕಾಸ್ ಯು ನೀಡ್ ಟು ಫಾರ್ ಅಸ್ ಟು ರಿಟೈನ್ ವಾಟ್ ಎವರ್ ವಿ ಹ್ಯಾವ್ ಸ್ಟಡೀಡ್ ರಾದರ್ ದನ್ ಜಸ್ಟ್ ಟ್ರೈಯಿಂಗ್ ಟು ಫಿನಿಶ್ ದ ಟೆಕ್ಸ್ಟ್ ಆರ್ ಕಂಪ್ಲೀಟ್ ದ ಪೋರ್ಷನ್. And as you can see, henceforth the text does become easier. Okay, as you go on, it is possible to understand it much more easily. So, vastu tastu. Pratyayartha pradhanam ityasya. Yaha pradhanam saha pratyayartha eva iti va. Yaha pratyayartha saha pradhanam eva iti va na arthaha. ಪ್ರಕೃತಿ ಪ್ರತ್ಯಯ ಸಹ ಅರ್ಥಂ ಭೂತಃ ತತ್ರ ಪ್ರತ್ಯಯಾರ್ಥ ಪ್ರಧಾನಂ ಇತ್ಯುಚ್ಯತೆ ತಸ್ಯ ಕಃ ಅರ್ಥಃ. ವಾಕ್ಯೇ ಪ್ರಾಧಾನ್ಯಂ ಪ್ರತ್ಯಯಾರ್ಥಸ್ಯೈವ ಪ್ರಾಧಾನ್ಯಂ ಅಥವಾ ಯಃ ಪ್ರತ್ಯಯಸ್ಯ ಅರ್ಥಃ ಸಹ ಪ್ರಧಾನ ಏವ ಭವತಿ ನ ಕದಾಚಿತ್ ಗೌಣಃ ಇತಿ ವಾ ವಕ್ತುಂ ನ ಶಕ್ಯತೆ ಇತಿ ವಾ ನಾರ್ಥಃ. ಕಿಮರ್ಥಂ ಅಜ ಅಶ್ವ ಛಾಗೀ ಇತ್ಯತ್ರ ಸ್ತ್ರೀ ಪ್ರತ್ಯಯಾರ್ಥೆ ಸ್ತ್ರೀತ್ವಸ್ಯೈವ ಪ್ರಾಧಾನ್ಯಾಪತ್ತೇಃ ಛಾಗ್ಯಾದೇಃ ಅನಾಪತ್ತೇಶ್ಚ. ಅಜ ಇತಿ ಪದಮಸ್ತಿ. ಅಜ ಶಬ್ದಾತ್ ಟಾಪ್ ಇತಿ ಸ್ತ್ರೀ ಪ್ರತ್ಯಯೇ ಅಜ ಇತಿ ನಿಷ್ಪಾದ್ಯತೆ. ತತ್ರ ಅಜ ಇತ್ಯಸ್ಯ ಕಃ ಅರ್ಥಃ? ಅಜ ವ್ಯಕ್ತಿಃ ಅ ಪರ್ಟಿಕ್ಯುಲರ್ ಕೈಂಡ್ ಆಫ್ ಅನಿಮಲ್ ಸಹ ಅರ್ಥಃ. ಟಾಪ್ ಇತಿ ಪ್ರತ್ಯಯಸ್ಯ ಸ್ತ್ರೀತ್ವಂ ಅರ್ಥಃ. ಇದಾನೀ ಮಿಲಿತಯೋಃ ಪ್ರಕೃತಿ ಪ್ರತ್ಯಯೋಃ ಅಜ ಇತ್ಯನೇನ ಕಃ ಅರ್ಥಃ? ಸ್ತ್ರೀತ್ವ ವಿಶಿಷ್ಟ ಅಜ ವ್ಯಕ್ತಿಃ. ಸೊ ಡಸ್ ಅಜ ಮೀನ್ ಅ ಗೋಟ್ ವಿಚ್ ಇಸ್ ಎಂಡೋರ್ಡ್ ವಿತ್ ದ ಅಟ್ರಿಬ್ಯೂಟ್ ಆಫ್ ಫೆಮಿನಿಟಿ ಆರ್ ಸ್ತ್ರೀತ್ವಂ? ಆರ್ ಅಜ ವ್ಯಕ್ತಿಗತಂ ಸ್ತ್ರೀತ್ವಂ, ಡಸ್ ಇಟ್ ಮೀನ್ ದ ಸ್ತ್ರೀತ್ವ ಆಸ್ ಎಂಬಾಡಿಡ್ ಇನ್ ಅನ್ ಅಜ ವ್ಯಕ್ತಿ? ಸೊ ಕಸ್ಯ ಪ್ರಾಧಾನ್ಯಂ, ಸ್ತ್ರೀತ್ವಸ್ಯ ಪ್ರಾಧಾನ್ಯಂ ವಾ ಅಜವ್ಯಕ್ತೇಃ ಪ್ರಾಧಾನ್ಯಂ ವಾ? ಅಜ ಇತ್ಯನೇನ ತು ಅಜವ್ಯಕ್ತಿರೇವ ಕಿಲ ಬುಧ್ಯತೆ. ಸ್ತ್ರೀತ್ವ ವಿಶಿಷ್ಟ ಅಜವ್ಯಕ್ತಿ ಇತ್ಯೇವ ಬೋಧಃ, ನತು ಅಜವ್ಯಕ್ತಿಗತಂ ಸ್ತ್ರೀತ್ವಂ. ಸೊ ಯು ಕೆನಾಟ್ ಸೇ ದಟ್ ಅಜ ಮೀನ್ಸ್ ವಾಟ್, ಇಟ್ ಮೀನ್ಸ್ ಸ್ತ್ರೀತ್ವ, ಇಟ್ ಮೀನ್ಸ್ ದ ಪ್ರಾಪರ್ಟಿ ಆಫ್ ಬೀಯಿಂಗ್ ಫೀಮೇಲ್ ಆಸ್ ಎಂಬಾಡಿಡ್ ಇನ್ ಅನ್ ಅಜ. ಸೊ ದಟ್ ಇಸ್ ನಾಟ್ ಹೌ ವಿ ಅಂಡರ್ಸ್ಟ್ಯಾಂಡ್ ಇಟ್ ಆಸ್ ಅನ್ ಅಜ which has the property of sthritva. Ataha yadi pratyayarthah yaha pradhanam saha pratyayartha eva iti, athava yaha pratyayarthah saha pradhanam eva iti niyamah kriyate, tarhi atra sthritvasya eva pradhanyam syat, natu ishyate. So we do not want sthritva to be pradhana here. That is not how we understand the word. Therefore, this nyaya is just kintu utsargaha ayam. Utsargaha nama prayikaha athava samanya niyamaha. Generally, as we say in case of pachakaha or in case of dasharathihi, prayena prakriti pratyayarthayoho madhye pratyayarthasya pradhanyam drishyate ityeva natu ayam niyamaha. So it is not a rigorous rule. Visheshyatvadina bodhastu tatha vyutpatyanurodhat. Vakye idanim ekam padam tatra prakritihi pratyayaha asti. Punashcha yada vakye bahuni padani santi tatra kasya pradhanyam kasya apradhanyam ityaditu vyutpatyanurodhat. Yatha jnanasya vyutpatihi, how you are trained, tatha bodha bhavati. Atayeva nayyayikanam prathamanta visheshyakaha eva bodhaha. Kasmad vakyat kidusho bodho jayate iti prashne yo yatha vyutpannas tasya tadrigeva iti sthitihi iti shabdakaustubhe dikshitaha vadanti. You hear a sentence, kasmad vakyat kidrishaha bodhaha bhavati iti chet yatha vyutpattihi tatha bodhaha. The way you are trained, that is how you understand it. Ateva chaitrah pasyati iti ekasyaiva vakyasya. Vikrityanukula vyaparanukula kritiman chaitraha iti nayayikaihi budhyate. Etadeva vakyam nayayikaihi prathamantasya visheshyatvena budhyate. Chaitrashayaha vikrityanukulaha vyaparaha iti vayyakaranaihi vyapara visheshyatvena budhyate. So even though the sentence is the same, so nayayikas understand this. So whatever arguments you do, Nayayika Siddhanta is there and Vayakrana Siddhanta is us. So this is how we understand it because of the Vyutpatti. That is our training. That is how we are trained to look at words. Atayeva visheshyatvadina bodhastu vyutpatyanurodhat. Atayeva nayayikanam prathamanta visheshyakaha eva bodhaha. So that does not actually depend on prakrityartha being pradhana or pratyayartha being pradhana. So pradhanya does not lie within the word itself. It lies in how we understand or interpret the word or sentence based on our inclination or our training. Lakshanayam alankarikanam shakyatavachedaka prakaraka eva bodhaha na nayayikadinam. And it is not only in this. Atraiva etadrishaha bhedaha itina. Anyatrapi bodhe shastreshu parasparam vairudhyam va vivadova drishyateva. Yatha lakshana gangayam ghoshaha ityasti. Lakshanayaha suprasiddham idamudaharanam. Tatra ganga shabdasya ganga tire lakshana iti angikriyate. Ataha gangayam ghoshaha ityasya ganga tire ghoshaha. Atra ganga shabdasya ganga iti ganga pravahaha shakyarthaha tiram lakshyarthaha. Idanim bodhaha katham bhavati ganga shabdasya. Alankarikamate gangatva prakarakaha tira visheshyakaha bodhaha. Tiram eva visheshyam. So tira is the final meaning, sa eva lakshyarthaha. Tatra prakaraha nama visheshanam kim gangatvam tadharmaha. Tatra kim nishta saha tadharmaha kaha iti chete shakyatavachedakasyaiva prakaratvam angikurvanti alankarikaha. So gangatva prakarakaha tira visheshyakaha bodhaha. So they understand it as tira as identified by the property or attribute of gangatva. Atayeva gangagata shaitya pavanatvadi pratiti siddhihi. Vastutaha gangayam ghoshaha ityanena kim bodhum ishyate. Ganga tire ghoshaha saha ghoshaha gangayaha atyantam nikate vartate. Ataha gangayam ganga pravahe ye gunaha shaityam pavanatvam ityadayaha te ghoshepi santi. So gangagatanam shaitya pavanatvadi dharmanam ghoshe aropaha lakshanaya kriyate. So that is the intent of lakshana. Why not directly say ganga tire ghoshaha? So by using ganga, the term ganga, it brings in the attributes of the ganga river itself, which is the shaitya or pavanatva. Ataha the identifying attribute for the tira here. So normally katham bhavati samanyatah yatra shakyarthah tatra tiram ityukte tiratva prakarakah tira visheshakah. So tira is identified by the attribute of tiratva and ganga is identified by the attribute of gangatva. Kintu atra yatra lakshanaya arthah budhyate tatra gangatva prakarakah tira visheshakah bodhah iti alankarika samayah. Okay, alankarikah means the alankara shastrajnyah. Okay, those who poetics yatha dhanyalokah va sahitya darpanah va ye kavyasya vyakhyanartham prayatante te alankarikah. So even though we say alankara, it is not actually just alankara, we call it sahitya shastra or kavya shastra. So the analysis of kavyas or poetics te api एतेषां विश्लेषणं कुर्वन्ति कथं अर्थबोधः इति. अतः तन्मते गंगात्वप्रकारकः तीरविशेषकः बोधः इन लक्षण यु आर् ऐडेंटिफाइंग द लक्ष्यार्थ एज एंडोर्ड विद द एट्रिब्यूट ऑफ द शक्यार्थ शक्यतावच्छेदक प्रकारकः लक्ष्यार्थबोधः इति आलंकारिकाणां मतम्. किन्तु नैयायिकाः नाङ्गीकुर्वन्ति. नैयायिकानां मते तीरत्वप्रकारकः तीरविशेषकः बोधः तत्र यल्लक्ष्यतावच्छेदकं तत्प्रकारकः एव बोधः इति नैयायिकाः. परस्परं वैरुध्यम् अस्ति. अतः अत्र विशेषणं किं गङ्गात्वं वा तीरत्वं वा इति चेत् आलङ्कारिकाणां गङ्गात्वं नैयायिकानां तीरत्वम् इत्येव वक्तव्यम्. यु केनाट् फर्दर् डिटर्मिन् देर्. सो दट् इस् नाट् डिपेण्डेण्ट् आन् द वर्ड् इट् सेल्फ्. ओके, सो दट् इस् वाट् हि इस् ट्रैङ्ग् टु से. द प्राधान्य आर् अप्राधान्य आफ् संथिङ्ग् वेदर् यु सी अ प्रथमान्तपद एस् मुख्य आर् व्यापार एस् मुख्य आर् एस् भावना एस् मुख्य आर् प्रधान, इट् डिपेण्ड्स् आन् युवर् व्यू पायिण्ट्. वाट् इस् द सिद्धान्त वित् विच् यु आर् यूसिङ्ग् इट्. सी दि व्यू एव्रिथिङ्ग् इन् द फ्रेम्वर्क् आफ् आर् सिद्धान्त. सो वै डु वि फैट् ओवर् वेदर् व्यापार इस् मुख्य आर् prathamantapada is mukhya, because we have a framework in vyakarana and we are trying to fit all everything into that framework, whereas nayayikas do the same. Their framework is different, that is why they have different bodha, and a mimamsaka will again have a different bodha. So that will depend on their vyutpatti and not on the word itself. Ataeva अत्र पूर्वमुक्तं विशेष्यत्वादिना बोधस्तु तथा व्युत्पत्त्यनुरोधात्. अत एव नैयायिकानां प्रथमान्तविशेष्यक एव बोधः. लक्षणायाम् आलङ्कारिकाणां शक्यतावच्छेदक प्रकारक एव बोधः न नैयायिकादीनाम्. किञ्च घटः कर्मत्वम् आनयनं कृतिः इत्यादौ विपर्ययेणाभिव्युत्पन्नानां नैयायिकनव्यादीनां बोधः न तु तद्व्युत्पत्तिरहितानाम्. तत्र घटः कर्मत्वम् आनयनं कृतिः इत्यस्ति. तेन किं बुध्यते? वाट् डु यु अण्डर्स्टाण्ड् फ्रम् इट्? एनी आफ् यू, इफ् सम्बडि सेस् घटः कर्मत्वम् आनयनं कृतिः, वाट् डु यु अण्डर्स्टाण्ड्? वाट् इस् द होल् मीनिङ्ग् आफ् दट्? If you are given a set of these four words, ghataha, karmatvam, anayanam, kritihi, so what is the meaning that you derive as a whole? Do you derive any meaning out of it? Yes or no? No answers. I mean, I'm not expecting you to answer that. What you understand? Do you understand anything out of it or not? That's all my question. Then I say, if you just say ghataha karmatvam anayanam kritihi, do you understand something or not? Okay, so the replies I've received are very very useful because it shows that exactly what he is saying is correct. Anubhava siddhatvam pratipadayati. So the replies are, it is not a complete sentence or we need more information. Why? You cannot make out the relation between these words. You have gataha karmatvam anayanam kritihi tan nirakankshameva anyeshamtu. Unless you are trained in a specific way of thinking, tan nirakankshameva. These four words are nirakanksha. When I say ghataha, karmatvam anayanam kritihi, we cannot make any connection between these words because they are nirakanksha. They do not have akanksha for each other. But for somebody who is trained in the Nayayika school, this means ghatam anaya. Ghatam anaya iti vakyam yadasti, tatra ghata iti padasya ghataha arthaha, am iti pratyayasya karmatvam arthaha, aang purvakaha nidhatuhu tasya anayanam arthaha, pratyayaha ching pratyayasya kritihi ityarthaha. Evancha ghataha karmatvam anayanam kritihi ityukte ghatam anaya iti yutpannanam nayayika navyadinam bodhaha bhavati. If you are trained with the nyaya system, you will understand it out of those. Anyesham tu tan nirakankshameva. But for others who do not have that vyutpatti, these will not make a sense. Okay, so for Nayayikas, the bodha arising out of ghatam anaya is the same bodha that arises out of ghataha karmatvam anayanam kritihi. Viparyayenapi, even if you say am ghata, that is you reverse that ghata and am, viparyayenapi, even if they are not in that order, vyutpannanam nayayika navyadinam bodhaha bhavati. So it depends on how you are looking at it, your training, and not exactly on the pradhanya of the words. Natu tad vyutpatti rahitanam. Yesham tu sa vyutpatti nasti arthate ghatapadasya ghataha arthaha ampadasya karmatvam arthaha. So even though you know Sanskrit, I mean forget the general audience, even for those who know some other shastra, who are trained in a shastra other than nyaya, they will not be able to get that bodha out of these words. Anyesham tu tan nirakankshameva ityadikam sangachyate. All this fits only when you accept that the pradhanya, that is visheshana and visheshya bhava, relating words to each other on visheshana visheshya bhava in a sentence depends on vyutpatti and not exactly on what is pradhana or apradhana in that word. Those meanings are there. Kintu kasya pradhanyam kasya na ityadikam tu vyutpattyanusaram eva bhavati. Evancha ghataha karmatvam anayanam kritihi ityuktepi ghatakarmaka anayananukula kritihi iti bodhaha nayayikanam bhavati natu anyesham. Atayeva pradhana pratyayartha vachanam arthasyanya pramanatvat ityaha bhagavan paninihi. Panini sutrameva asti vastataha pradhana pratyayartha vachanam arthasyanya pramanatvat. Tada purva sutram asti tadashishyam samya pramanatvat tataha ashishyam iti anuvartate. So in this section, some four or five sutras, Pani defines those things which cannot be determined by the shastra. Ashishyam, shastum ayogyam athava ashakyam, that which cannot be defined by shastra. Ashishyam, ashishyam ityeva kathayati. Tatra pradhana pratyayartha vachanam, arthat pradhanam pratyayarthaha iti vachanam nakaryam ashishyam padrisham ekam sutram na kriyate. Kimartham arthasya, arthasya nama tatha bodhasya arthavagamanasya anya pramanatvat. It depends on other things, it does not depend on a shastra. So Panini very clearly states, I cannot dictate the meaning. I cannot declare that pratyayartha is pradhana or prakrityartha is pradhana, because understanding that pradhanya depends on other things. Anya pramanam vyutpatyanusaritvadeva sahabodhaha. तस्य सिद्धान्तकौमुद्याम् अस्य सूत्रस्य अर्थः एवम् प्रत्ययार्थः प्रधानम् इत्येवम् रूपम् वचनम् अशिष्यम् न शासनीयम् कुतः अर्थस्य लोकत एव सिद्धेः तादृशः अर्थः अर्थस्य प्राधान्यम् च लोकव्यवहाराद् व्युत्पत्त्या वा सिद्ध्यति न तु शास्त्रेण सो शास्त्र केनाट् कण्ट्रोल् हौ यु अण्डर्स्टाण्ड् अ पर्टिक्युलर् थिङ्ग् अत एव तदाधृत्य प्रत्यय प्रकृतिप्रत्ययोः प्रत्ययार्थस्य प्राधान्यम् इति न्यायम् आधृत्य भावना प्रत्ययार्थः एव इति वादः न तिष्ठति एवं सत्यपि नियामकापेक्षणे च सो इवन् दो इट् इस् ट्रू किम् उक्तम् मीमांसकमतस्य उपकारत्वेन प्रस्तुतम् वचनम् निर्मूलम् नाम मीमांसकाः वदन्ति प्रकृतिप्रत्ययार्थन्यायेन भावना प्रत्ययार्थः इति तद्वचनमेव निर्मूलम् सो वी हव् प्रूव्ड् दट् दट् वचन विल् नाट् स्टाण्ड् द फस्ट् थिङ्ग् तस्मिन् न्याये अङ्गीकृते पक्ववान् पाकम् कृतवान् इत्यत्र प्रकृत्यर्थप्रत्ययार्थयोः परस्परम् अन्वयः एव न भवति इति प्रतिपादितम् किञ्च प्राधान्यस्य प्रकारस्य वा बोधः व्युत्पत्त्यनुसारेण भवति न तु केवलं वचनमाधृत्य इत्यपि प्रतिपादितम् एवञ्च एतद्वचनं निर्मूलम् तथापि नियामक अपेक्षणे अस्तु तद्वा भवतु किन्तु इदानीम् आख्याते कस्य प्राधान्यम् इति नियामकं यदि किञ्चिदपेक्षते तर्हि भावप्रधानमाख्यातम् इति वचनमेव गृह्यताम् इति सुधीभिरुक्तम् सो वी डु नाट् हाव् अ प्राब्लम् वित् भावप्रधानमाख्यातम् मीमांसकाः वदन्ति भावप्रधानमाख्यातमिति यास्केन उक्तम् प्राधान्यम् च प्रत्ययार्थस्यैव अतः भावना प्रत्ययार्थः इति प्रत्ययार्थप्राधान्यम् नाङ्गीक्रियते किन्तु भावप्रधानमाख्यातम् इति तु अस्माभिरपि अङ्गीक्रियते अत्र आख्यातपदम् धातुपरम् अतः धात्वर्थस्य भावनायाः एव प्राधान्यम् अङ्गीक्रियते न तु प्रत्ययार्थस्य भावनायाः अतः तेन कारणेन भावना प्रत्ययार्थः इति वक्तुम् निरूपयितुम् न शक्यते सो दट् इस् द फस्ट् युक्ति आफ् मीमांसकास् इन् विच् दे से दट् प्रत्ययार्थन्याय प्रकृतिप्रत्यययोः प्रत्ययार्थः प्रधानम् इति न्यायेन भावना प्रत्ययवाच्य इति साधयितुम् न शक्यते द्वितीया युक्तिः तदागमन्यायः तदागमे हि तत् दृश्यते इति न्यायः बिफोर् दट्
You mean to say that the difference in the Mimamsakas and Vairarikas is an understanding of the Akhyata word?
Yeah. Yes. Bhava Pradhanam Akhyatam.
Dhatu.
Yeah. So the Mimamsakas say it is Tinganta. Yeah, yeah. Mimamsakas say Akhyatam ityanena Tingantam Grahyate Tingante Bhavanayaha Pradhanyam. Adaha Pratyayarthaha iti Mimamsakaha. We say that okay, the akshata here does not mean a tinganta at all, it means the dhatu. Iti tatra uchyate bhava pradhanam akshatam sattva pradhanani namani iti askavachanam. Tatrapi sattva pradhanani namani ityatrapi nama shabdena pratipadikameva grihyate. Evam bhava pradhanam akshatam ityatra akshata padena dhatu eva grihyate iti vaiyakaranam siddhantaha. तदागमेहि इति न्यायः विवरणं च अतिव्याप्तम् इत्याह सो तदपि उक्तम् किमुक्तम् तदागमे हि तद्दृश्यते इति न्यायस्य विवरणम् किम् दत्तम् पूर्वम् स्मरन्ति वा मीमांसकमतम् पूर्वमपि उक्तम् पचति इत्यादौ आख्यातागमे आख्यातः नाम अत्र प्रत्ययः तिङ् प्रत्ययागमे भावनायाः प्राधान्येन प्रतीतिः भवति पाचकः इत्यादौ आख्यातस्य अभावे नाम तिङ्प्रत्ययस्य अभावे भावनायाः प्राधान्येन प्रतीतिः न भवति एवञ्च अन्वयव्यतिरेकाभ्याम् आख्यातागमे भावना प्राधान्यम् आख्याताभावे भावनायाः प्राधान्यम् नास्ति इत्यतः अन्वयव्यतिरेकाभ्याम् भावना आख्यातार्थः एव इति मीमांसकाः वदन्ति तच्च अतिव्याप्तम् सो दट् will not hold. Kimartham, kim kritam pakvam ityapi. So, if you remember the karika, what was the beginning of the karika? Tasmat karotir dhatosya vyakhyanam natvasautingam. Pakvavan kritavan pakam kimkritam pakvam ityapi. Tatra karotihi iti krudhatuna yatra vivaranam kriyate. Tat tadvishaye uchyate. Pakvavan kritavan pakam. Tatra pratyayartha prakrityarthayoho paraspara anvayaha na bhavati iti uktam. Kimkritam pakvam ityapi iti karikayaha antimaha bhagaha idanim uchyate. Tadagamehi itinyayaha vivaranancha ativyaptam ityaha kinkritam pakvam iti kriya vivaranam pratitischa pakvam ityatra api iti tatrapi bhavana vachya syad iti bhavaha pakvam iti paramasti pachudhatoho ktapratyaha bhavarthe ktapratyaha tada pakvam pachovaha ityanena takarasya sthane vakaradeshaha pakvam iti rupam. Atra akhyatasya abhave api purvam kivuktam akhyatagame eva bhavanayaha pradhanyam akhyatasya abhave bhavanayaha pradhanyam nasti iti uktam kintu pakvam ityadishu bhavartha kridanteshu akhyata bhave api bhavana pradhanyam astyeva tatrapi bhavana astyatah tatrapi bhavana vachya syad iti bhavah. Krinya vivaranam pratitischa kim kritam iti prashte pakvam nama pakaha kritaha iti krinidhatoho upayogena vivaranam tadarthasya cha pratitihi pakvam ityatrapi asti na kevalam pachati ityatra pakam karoti iti karotina vivaranam pakvam kim kritam pakvam kim kritavan pakvaman nama pakam kritavan ityadi kridanteshu api kriya vivaranam pratitischa asti atah tatra api bhavana vachya syad iti bhavah. Nanu astu tingaha iva kritam api bhavana vachya astu bhavana vachya iti chete astu yatha ting pratyayasya bhavana arthaha evam krit pratyayasya api bhavana arthaha iti bhavatu iti chete tatra yaska vachana virodhah. Kritpratyayasthane yadi bhavana pradhanyam angikriyate tarhi sattva pradhanani namani iti yaska vachanena virodhah. So you are insisting on the bhava pradhanam akhyatam. You cannot forget sattva pradhanani namani tarapi vyaskena uktam nama nama pratipadikam tatra kridanteshu sattvasyaiva pradhanyam yaskena uktam natu bhavasya. Atah tingaha iva kritamapi bhavana vachya iti vaktum na shakyate. Tathaja ubhaya sadharanyena tatpratitehe. Yatha pachati ityatra tingantasthale. Tatha pakvam pachanam ityadi kridantasthale api bhavanayaha pratitihi asti. Ubhaya sadharana. Sadharana means common. So you see the bhavana in common. Yatha tingantasthale tatha kridantasthale. Tathaja ubhaya sadharanyena tatpratitehe. Ubhaya sadharano dhatureva vachakaha. Pachati ityatrapi bhavana pratitihi asti. Pakaha pachanam pakvam ityadishu api bhavana pratitihi asti. So there is a common factor. And what is the common factor between these? It is the dhatu. Ubhaya sadharanaha dhatureva vachakaha iti bhavaha. So it is common sense to assume that the common factor in these, in pachati and pakvam, the common factor is the pachadhatu. So when you are getting bhavana in both sides, so it is common sense to assume that the bhavana is coming from the dhatu and not from the pratyaya. Tathaja ubhaya sadharanyena tatpratitehe ubhaya sadharanaha dhatureva vachakaha iti bhavaha. Bhavadritya pratyayarthatvat pradhanya patischeti drashtavyam. Yadi tatha nangi kriyate yadi bhavana eva भावना प्रत्ययार्थः इत्येव उच्यते, तर्हि अत्रापि प्रत्ययार्थस्य प्राधान्यात् कृदन्तस्थले सत्त्वप्रधानानि नामानि इति वचनवैरुध्येन भावनाप्राधान्यम् भावकृदन्तस्थले वा भावनाप्राधान्यम् अङ्गीकर्तव्यम् स्यात्, तत्तु भवतः सिद्धान्तस्य इव विरुद्धः. अतः उभयत्र धातुवाच्या एव भावना भावप्रधानमाख्यातम् इति वचनबलात् धात्वर्थस्य भावनायाः प्राधान्यम् तिङन्तस्थले, सत्त्वप्रधान्यानि नामानि कर्तरिकृत् इत्यादि वचनबलात् प्रत्ययार्थस्य नाम सत्त्वस्य कर्तुः वा अन्यस्य वा प्राधान्यम् कृदन्तस्थले इति अङ्गीकर्तव्यम् इति इति वैयाकरणानां सिद्धान्तः. एनि क्वश्चन्?
In one of the previous slides, you mentioned about Anme Vedrekam.
Yeah.
Yeah, I have a small question there. I will listen to this. In the first class also you mentioned this. Let us say we have Yatra Dhumaha Tatragnihi is Anmayam.
Yeah.
And the Vedrekam is Yatra Agnir Nasti Tatra Dhumapi Nasti. That is what I understand as the Vedrekam.
Yes. So, yatra ting pratyaha nasti, tatra bhavanarthatvam nasti. Yatra ting pratyaha asti, tatra bhavan asti. See, anvaya and vetireka, it does not only mean, I mean, I think your question is whether is between the interchanging of dhuma and vanni. Is that the intention of your question?
Yes, ma'am. Yes, ma'am.
No, no. See, anvaya, it's just together, being together, sahacharya. And vetireka is one being found without the other. See, in vyapti, when you are trying to do it as a vyapti, there the relation matters, that is whether dhuma comes from agni or not. So in this case, what it means is only that where you find thing pratyaya, you find this artha. Where there is no thing pratyaya, you do not have the artha. That is what is meant by the anvaya vitireka here. So it is not that technical this which you go in the vyapti. Okay, when you say, yeah. So it is just being association and dissociation, that is, they are found in association and being not found in dissociation. So we are not getting in the point of what is the, you know, vanhi vyapya dhumaha or what is vyapaka vyapya, etc.
Yadi are also in the,
yes, sorry,
in the Guda and the Madhura. Yatra Guda nasti, yatra Madhura nasti, they are all. So I think it's the same
argument. Yes, yes. It's not the Anvaya Vitreka as in for the Vyapti Niyama. Okay. It is saying association and not being association. That's all.
Thank you, ma'am.
Yeah. Okay. So we will move on to the next karika. Sadhakantara Maha. So he is continuing with the same thing. किं साधकान्तरं व्यापारस्य धात्वर्थत्वे साधकान्तरं नाम अन्यमुपायम् आह कथयति. अत्र किं प्रतिपादयितुमिच्छति? एतावता फलव्यापारयोः उभयोः वाच्यत्वं साधितम्, इदानीं सः व्यापारः धातुवाच्यः एव तत् प्रत्ययवाच्यः इति प्रतिपादयति. तत्र कानिचन प्रमाणानि प्रस्तुतानि, अग्रेपि दृश्यते. किं कार्यं पचनीयं चेत्यादि दृष्टं हि कृत्स्वपि किञ्च क्रियावाचकतां विना धातुत्वमेव न. किं कार्यं पचनीयं च इत्यादि कृत्स्वपि हि दृष्टम्. सो दिस् इस् कण्टिन्यूयिङ्ग् फ्रम् द प्रीवियस् वन्. पक्ववान् कृतवान् पाकम्, किं कृतं पक्वम्, किं कार्यं पचनीयम् इत्यादि कृत्स्वपि हि दृष्टम्. सो वन् थिङ्ग् यु हाव् द कृ धातु एव्रिवेर् as in thing, so in krut vayatra asti, kincha kriyavachakatam vina dhatutvam eva na iti artha dvau arthau karikayah. Tatra purvam pashyamaha karyam ityatra rihalor nyat iti karmani nyat. Karyam iti padam asti, karyam ityatra karmarthe nyat pratyayah. तत्र लःकर्मणि च भावे च कर्मकेभ्यः इति सूत्रम्, ततः तयोरेव कृत्यक्तखलर्थाः इति सूत्रमस्ति. तयोः इत्युक्ते कर्मणि भावे च भावकर्मणोः एते प्रत्ययाः, कृत् ಕೃತ ಪ್ರತ್ಯಯ ಕೃತ್ಯ ಪ್ರತ್ಯಯ ಸೊ ಕೃತ್ಯ ಇಸ್ ಅ ಸಬ್ಸೆಟ್ ಆಫ್ ಕೃತ್ ಪ್ರತ್ಯಯ ಸೊ ದರ್ ಆರ್ ಸೆವೆನ್ ಪ್ರತ್ಯಯ ತವ್ಯತ್ ತವ್ಯ ಅನಿಯರ್ ಯತ್ ಣ್ಯತ್ ಕ್ಯಪ್ ಅಂಡ್ ಕೇಲಿಮರ್ ಓಕೆ ಸೊ ದೀಸ್ ಸೆವೆನ್ ಪ್ರತ್ಯಯಸ್ ಆರ್ ಕಾಲ್ಡ್ ಕೃತ್ಯ ಕೃತ ಪ್ರತ್ಯಯ ಖಲರ್ಥ ಖಲ್ ಅಸ್ತಿ ತದರ್ಥಕಃ ಅನ್ಯ ಪ್ರತ್ಯಯಃ ಸಂತಿ ಏತೇ ಸರ್ವೇಪಿ ತಯೋರೇವ ನಾಮ ಭಾವಕರ್ಮಣೋರೇವ ಭವಂತಿ ಇತಿ ಸೂತ್ರಂ ಏತದ್ ಬಲಾತ್ ಕಾರ್ಯಂ ಇತ್ಯತ್ರ ಕರ್ಮಣಿ ನ್ಯತ್ ಪ್ರತ್ಯಯಃ ದೃಶ್ಯತೆ ಪಚನೀಯಂ ಇತ್ಯಾದೌ ಚ ಅನಿಯರ್ ಸೊ ಅನಿಯರ್ ಇತ್ಯಪಿ ಕೃತ್ಯ ಪ್ರತ್ಯಯಃ ಕರ್ತರಿಕೃತ್ ಇತಿ ಸಾಮಾನ್ಯ ಅನುಶಾಸನ ಓಕೆ ಯು ಶುಡ್ ರಿಮೆಂಬರ್ ದಟ್ ಕರ್ತರಿಕೃತ್ ಇಸ್ ಅ ಜನರಲ್ ಸೂತ್ರ ಸೊ ದೇರ್ ಆರ್ ಎಕ್ಸೆಪ್ಷನ್ಸ್ ಭಾವೇ ಇತಿ ವಿಶಿಷ್ಯ ವಿಧೀಯಂತೆ ತಯೋರೇವ ಕೃತ್ಯರ್ಥ ಕಲರ್ಥಃ ಇತ್ಯನೇನ ಭಾವ ಕರ್ಮಣೋಃ ಕರ್ಮಾರ್ಥೇ ಅಪಿ ಏತೇ ಪ್ರತ್ಯಯಃ ವಿಧೀಯಂತೆ ಅತಃ ಪಚನೀಯಂ ಇತ್ಯಾದೌ ಚ ಅನಿಯರ್ ಕರ್ಮಾರ್ಥೇ ಅನಿಯರ್ ಓದನಃ ಪಚನೀಯಃ ಯವಾಗೂಃ ಪಚನೀಯ ಅನ್ನಂ ಪಚನೀಯಂ ಸೊ ಯು ಸೀ ದ ರಿಲೇಷನ್ ಬಿಟ್ವೀನ್ ದ ಆಬ್ಜೆಕ್ಟ್ ಕರ್ಮಾರ್ಥೇ ಅನಿಯರ್ ಪ್ರತ್ಯಯಃ ಏವಂ ಕಾರ್ಯಂ ಇತ್ಯಪಿ ಕಟಃ ಕಾರ್ಯಃ ವಿಕ್ಲಿಪ್ತಿಃ ಕಾರ್ಯ ಪಠನಂ ಕಾರ್ಯಂ ಇತ್ಯೇವಂ ಕರ್ಮಣಿ ನ್ಯತ್ ಪ್ರತ್ಯಯಃ ಕರ್ಮಣಿ ಅನಿಯರ್ ಆದಿನಾ ಸೊ ಕಿಂ ಕಾರ್ಯಂ ಪಚನೀಯಂ ಚ ಇತ್ಯಾದಿ ದೃಷ್ಟಂ ಹಿ ಕೃತ್ಸ್ವಪಿ ಆದಿನಾ ಜ್ಯೋತಿಷ್ಠೋಮಯಾಜಿ ಇತ್ಯಾದೌ ಕರಣೇ ಉಪಪದೇ ಕರ್ತರಿ ನಿನಿಹಿ ಜ್ಯೋತಿಷ್ಠೋಮಯಾಜಿ ಜ್ಯೋತಿಷ್ಠೋಮೇನ ಇಷ್ಟವಾನ್ ಇತ್ಯರ್ಥೆ ಕರಣೇ ಯಜಃ ಇತಿ ಸೂತ್ರೇಣ ಕರಣೇ ಉಪಪದೇ ಸೊ ವೆನ್ ಕರಣ ಇಸ್ ದ ಉಪಪದ ಯಜಧಾತೋ ಕರ್ತೃರ್ಥೇ ನಿನಿ ಪ್ರತ್ಯಯಃ ವಿಧೀಯತೆ ಸೊ ವಾಟ್ ಇಸ್ ಕಾಮನ್ ಟು ಆಲ್ ದೀಸ್ ವಿ ಹ್ಯಾವ್ ಡಿಫರೆಂಟ್ ಕಾರಕ ರಿಲೇಷನ್ಶಿಪ್ ವಿ ಸಿ ಕರ್ತೃರ್ಥೇ ಕೃತ್ ಪ್ರತ್ಯಯಃ ಭವತಿ ಕರ್ಮಾರ್ಥೇ ಭವತಿ ಕರಣೇ ಉಪಪದೇ ಭವತಿ ಏವಂ ಅಪಾದಾನೇ ಅನಿಯರ್ ಭವತಿ ದಾತವ್ಯಂ ಅಸ್ಮೈ ದಾನೀಯಃ ವಿಪ್ರಃ ಅಧಿಕರಣಾರ್ಥೇ ಪ್ರತ್ಯಯಃ ಭವಂತಿ ರಮಂತೆ ಯೋಗಿನಃ ಅಸ್ಮಿನ್ ಇತಿ ರಾಮಃ ಅಪಾದಾನಾರ್ಥೇ ಭವಂತಿ ಏವಂ ಸರ್ವೇಷು ಕಾರಕೇಷು ಕಾರಕಾರ್ಥೇಷು ಪ್ರತ್ಯಯಃ ವಿಧೀಯಂತೆ ಕಾರಕತ್ವಂ ಕಥಂ ಸಂಭವತಿ ಏತೇ ಚ ಕ್ರಿಯಾಯೋಗಮಂತರೇಣ ಅಸಂತಃ ಏತೇ ನಾಮ ಕಾರಕಬೋಧಕಾಃ ಪ್ರತ್ಯಯಃ ಯತ್ರ ಪ್ರತ್ಯಯವಿಧಾನೇ ಕಾರಕಂ ಆಶ್ರಿಯತೆ ತೇ ಕ್ರಿಯಾಯೋಗಂ ಅಂತರೇಣ ಅಸಂತಃ ಕ್ರಿಯಾಯೋಗಂ ವಿನಾ ಕಾರಕತ್ವಂ ನಾಸ್ತಿ ಸೊ ಗತವರ್ಗೇಪಿ ದೃಷ್ಟಂ ಕಾರಕೇ ಇತ್ಯಧಿಕ್ರಿಯತೆ ಕರೋತಿ ಇತಿ ಕಾರಕಂ ಯತ್ರ ಕ್ರಿಯಾಯೋಗಃ ಕ್ರಿಯಾತ್ವಂ ಏವ ಕಾರಕಾನ್ವಯಿತಾವಚ್ಛೇದಕತ್ವಂ ಕ್ರಿಯಾತ್ವಂ ಅಸ್ತಿ ಚೇದೇವ ಕಾರಕತ್ವಂ ಅತಃ ಕ್ರಿಯಾಯೋಗಂ ಅಂತರೇಣ ಅಸಂತಃ ಅಸಂಭವಂತಃ ಯದಿ ಕ್ರಿಯಾ ನಾಸ್ತಿ ತರ್ಹಿ ಪ್ರತ್ಯಯಾನಾಂ ಅಸಂಭವಃ ಅಸಂತಃ ತದ್ವಾಚ್ಯತಾಂ ಬೋಧಯಂತಿ ತೇನೈವ ಕಿಂ ಬುಧ್ಯತೆ ಧಾತೌ ಧಾತೋಃ ವ್ಯಾಪಾರ ವಾಚಕತ್ವಂ ಬೋಧಯಂತಿ ಯತೋಹಿ ಧಾತೋಃ ಇದಾನೀಂ ಪಚ್ ಇತಿ ಧಾತೋಃ ಕರ್ಮಣಿ ಪ್ರತ್ಯಯಃ ವಿಧೀಯತೆ ತಸ್ಯ ಕರ್ಮಣಃ ಕುತ್ರ ಅನ್ವಯಃ ವ್ಯಾಪಾರೇ ಕ್ರಿಯಾಯಾಂ ಅನ್ವಯಃ ವಕ್ತವ್ಯಃ ಕುತ್ರ ಅಸ್ತಿ ಕ್ರಿಯಾ ಇತಿ ಚೇತ್ ಧಾತೌ ಧಾತುನಾ ಉಚ್ಯತೆ ಇತ್ಯೇವ ಕಿಲ ವಕ್ತವ್ಯಂ You're saying the dhatu pach or any dhatu gets a pratyaya in the sense of karma. So to tell that it is a karma, you need a kriya. If there is no kriya, it cannot be a karma. So where is the kriya? So there is only dhatu. Ataha tena dhatu na kriya uchyate iti angi kartavyameva. Ete cha kriya yoga mantarena asantaha tadvachyatam bodhayanti. Vina kriyam karakatva asambhavena. ತದ್ವಾಚಕ ಪ್ರತ್ಯಯಸ್ಯಾಪಿ ಅಸಂಭವಾತ್ ಕ್ರಿಯಾ ನಾಸ್ತಿ ಚೇತ್ ಕಾರಕಂ ನಾಸ್ತಿ ಕಾರಕವಾಚಕ ಪ್ರತ್ಯಯಸ್ಯ ನಾಸ್ತ್ಯೇವ ನಚ ಗಮ್ಯಮಾನ ಕ್ರಿಯಾಮಾದಾಯ ಕಾರಕಯೋಗಃ ಇತಿ ಭಾಟ್ಟರೀತಿಹಿ ಯುಕ್ತಾ ತತ್ರ ಭಾಟ್ಟಾಃ ನಾಮ ಮೀಮಾಂಸಕಾಃ ವದಂತಿ ಗಮ್ಯಮಾನ ಕ್ರಿಯಾ ಯದ್ಯಪಿ ಕ್ರಿಯಾ ಸಾಕ್ಷಾನ್ ನೋಚ್ಯತೆ ತಥಾಪಿ ಕಾರಕಮಸ್ತಿ ಕಾರಕಂ ಚ ಕ್ರಿಯಾಂ ವಿನಾ ಅನುಪಪನ್ನಂ ಇತ್ಯತಃ ಕ್ರಿಯಾ ಗಮ್ಯತೆ So we infer the presence of kriya, it is not directly expressed. Iti bhakta riti hi, bhaktaha, mimamsakaha, tesham riti hi, na yukta, nacha yukta. Akhyate pi tathatva pattau, तत्रापि भावनायाः वाच्यत्व असिध्यापत्तेः एवं चेत् आख्याते नाम तिङन्तस्थले अपि एवमेव वक्तुं शक्यते गम्यमानक्रियया कर्तुः योगः तथा सति तत्रापि भावनायाः वाच्यत्व असिद्धिः भावना तत्रापि वाच्या न स्यात् भावनायाः वाच्यत्वं तु मीमांसकैः इष्यते एवञ्च भिन्नेषु कारकार्थेषु प्रत्ययाः विधीयन्ते ते च प्रत्ययाः क्रियां विना न सम्भवन्ति अतः क्रिया भवेत् सा च क्रिया धातुना वाच्या इति वैयाकरणानां वादः सो इट् विल् कण्टिन्यू अण्ड् वी विल् रीड् दट् इन् द नेक्स्ट् क्लास् एनी क्वश्चन् or else we can read the karika.
फणिभाषितभाष्याब्धे शब्दकौस्तुभ उद्धृतः तत्र निर्णीत एवार्थः संक्षेपेणेह कथ्यते फलव्यापारयोर्धातुराश्रयेत तिङस्मृताः फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् फलव्यापारयोस्तत्र फले तङ्यक्चिणादयः व्यापारे शप्ष्णमाद्यास्तु द्योतयन्त्याश्रयान् वयम् उत्सर्गोऽयं कर्मकर्तृविषयादौ विपर्ययात् तस्मात् यथोचितं ज्ञेयं द्योतकत्वं यथा गमम् व्यापारो भावना सैवोत्पादनासैव च क्रिया कृण्यो कर्मकता पत्तेर्न हि यत्नोऽर्थ इष्यते किन्तूत्पादनमेवातः कर्म वत्स्याद्यगाद्यपि कर्मकर्तर्यन्यथा तु न भवेत्तदृशेरिव निर्वर्त्ये च विकार्ये च कर्मवद्भाव इष्यते न तु प्राप्ये कर्मणीति सिद्धान्तोऽत्र व्यवस्थितः तस्मात् करोतिर्धातोऽस्याव्याख्यानन्नत्वसौ तिङाम् पक्ववान् कृतवान् पाकम् किं कृतम् पक्वमित्यपि किं कार्यम् पचनीयम् चेत्यादि दृष्टम् हि कृत्वपि किञ्च क्रियावाचकताम् विना धातुत्वमेव न सर्वनामाव्ययादीनाम् यावादीनाम् प्रसङ्गतः न हि तत् पाठमात्रेण युक्तमित्याकरे स्फुटम् धात्वर्थत्वं क्रियात्वं चेत् धातुत्वं च क्रियार्थता अन्योन्यसंशयस्पष्टस्तस्मादस्तु यथाकरम् अस्यादावपि धर्म्यंशे भाव्येऽस्त्येव हि भावना अन्यत्राशेषभावात्तु सा तथा न प्रकाशते फलव्यापारयोरेकनिष्ठतायामकर्मकः धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः आख्यातशब्दे भागाभ्याम् साध्यसाधनरूपता प्रकल्पिता यथा शास्त्रे सघन्यादिष्वपि क्रमः साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना सिद्धभावस्तु यस्तस्याः सघन्यादिनिबन्धनः सम्बोधनान्तर्कृत्वोऽर्थाः कारकम् प्रथमोपतिः धातुसम्बन्धाधिकारनिष्पन्नमसमस्तनन्य तथा यस्य च भावेन षष्ठी चेत्यदितम् द्वयम् साधुत्वमष्टकस्यास्य क्रिययैवावधार्यता यदि पक्षेऽपि वस्यर्थः कारकञ्जनन्यादिषु अन्वेति त्यज्यताम् तर्हि चतुर्थ्या स्पृहि कल्पना अविग्रहागतादिष्ठा यथा ग्रामादिकर्मभिः क्रिया सम्बध्यते तद्वत्कृतपूर्व्यादिषु स्थिता कृत्वोऽर्थाः त्वातु मुन्वच्युरिति चेत् सन्ति क्वचित् अतिप्रसङ्गो नोद्भाव्योऽभिधानस्य समाश्रयात् भेद्यभेदकसम्बन्धोपाधिभेदनिबन्धनम् साधुत्वम् तदभावेऽपि बोधो नेह निवार्यते श्रीलक्ष्मीरमणम् नौमि गौरीरमणरूपिणम् स्फोटरूपम् यतः सर्वम् जगदेतद्विवर्तते धन्यवादाः. So the next class is on Thursday.